एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। अस्यैव फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य अन्तर्गतम् अधुनावधि प्रत्यक्ष प्रणाल्याः पक्षस्य सर्वेषां स्थानानां परिणामः प्राप्तोऽस्ति, यत्र राष्ट्रिय स्वतन्त्र दलेन सर्वाधिकं पञ्चविंशत्युत्तरैकशत स्थानेषु विजयः अधिगतोऽस्ति। नेपाली कांग्रेस दलेन अष्टादशसु स्थानेषु, नेकपा एमाले दलेन नवसु स्थानेषु, नेपाली कम्युनिष्ट दलेन अष्टसु स्थानेषु, श्रम संस्कृति दलेन त्रिषु स्थानेषु च विजयः अधिगतोऽस्ति। राप्रपा दलेन एकस्मिन् स्थाने विजयः प्राप्तो वर्तते, एकस्मिन् स्थाने स्वतन्त्र प्रत्याशी विजयी सम्भूतोऽस्ति। धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रे नेकपा दलस्य मातृका प्रसाद यादव निर्वाचितोऽस्ति। एतत्पूर्व सर्वोच्च न्यायालयेन धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रस्य रासुपा दलस्य प्रत्याशिन किशोरी शाहस्य प्रत्याशिता निरसन सम्बद्धे विषये निर्वाचन आयोग मतपरिणामस्य घोषणां रुद्धुम् आदिष्ट आसीत्। अन्तरिमादेशस्य विषये विमृष्टुं न्यायालयेन अस्यैव फाल्गुन मासस्य उनत्रिंशे दिवसे शुक्रवासरे समयः निर्धारितो वर्तते। समानुपातिक निर्वाचन प्रणाल्याः अन्तर्गतम् एकायाः कोट्याः द्वयो लक्षयो अष्टाविंशति सहस्राणां पञ्चानां शतानां सप्तषष्टिश्च मतानां गणना सम्भूता अस्ति। तत्र समानुपातिक प्रणाल्यां राष्ट्रोपा दलेन एकोनपञ्चाशल्लक्ष्याणि पञ्चदश सहस्राणि चतुःशतानि अष्टासप्तति च मतानि प्राप्तानि सन्ति। रासोपा दलं समानुपातिक प्रणाल्यामपि अग्रस्थाने वर्तते। नेपाली कांग्रेस दलेन षोडश लक्ष्याणि चतुष्षष्टि सहस्राणि चतुःशतानि द्वाषष्टिश्च मतानि प्राप्तानि वर्तन्ते। नेपाली कांग्रेस दलं द्वितीय स्थाने अस्ति। एवमेव नेकपा एमाले दलेन त्रयोदश लक्ष्याणि द्व्यशीति सहस्राणि नवशतानि अशीति च मतानि प्राप्तानि सन्ति। तथैव नेपाली कम्युनिष्ट दलेन सप्तलक्ष्याणि सप्तचत्वारिंशत् सहस्राणि त्रीणि शतानि एकत्रिंशच्च मतानि प्राप्तानि वर्तन्ते। श्रम संस्कृति दलेन च त्रीणि लक्ष्याणि षट्चत्वारिंशत् सहस्राणि नवति च मतानि प्राप्तानि सन्ति। एवमेव राप्रपा दलेन त्रीणि लक्ष्याणि एकविंशति सहस्राणि सप्तशतानि एकसप्ततिश्च मतानि प्राप्तानि सन्ति। भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदी इत्यनेन राष्ट्रिय स्वतन्त्र दलस्य सभापतये रवि लामिछाने विधाय, दलस्य वरिष्ठ नेत्रे बालेन्द्र शाह विधाय च दूरभाषं विधाय वर्धापनं प्रदत्तं वर्तते। प्रधानमन्त्रिणा मोदी इत्यनेन रवि इत्यनेन बालेन्द्रेण च सह दूरभाषवार्ता सम्भूता, रासोपा दलेन प्राप्तस्य निर्वाचन परिणामस्य च विषयमालक्ष्य द्वाभ्यामेव नेतृभ्यां वर्धापनं प्रदत्तमिति च सामाजिक सञ्जाले उल्लिखितमस्ति। राष्ट्रियसभायाः नवनिर्वाचितैः सदस्यैः ह्यः शपथः गृहीतोऽस्ति। सिंहप्रासादवर्तिनी संघीय संसद सचिवालये आयोजिते समारोहे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः नवनिर्वाचितान् सदस्यान् शपथम् अग्राहयत्। अस्यैव फाल्गुन मासस्य विंशे दिवसे कार्यकालं सम्पादितवतां राष्ट्रियसभायाः एकोनविंशतिः सदस्यानां कृते गत माघ मासस्य एकादशी दिवसीय सम्भूते निर्वाचने अष्टादश जनाः निर्वाचिताः आसन्। एकः सदस्यः सर्वकारस्य परामर्शेन राष्ट्रपतिना नियोज्यते। माघ मासस्य एकादशी दिवसीय सम्भूते निर्वाचने खम्बबहादुर खाती, गीता देवकोटा, चन्द्रबहादुर केसी, जगत तिमिल्सेना, धर्मेन्द्र पासवान, प्रेम प्रसाद दंगाल, महन्त ठाकुर, मीना सिंह रखाल, रंजित कर्ण, रामकुमारी झाँक्री, रेखा कुमारी झा, रोशनी मेचे, ललित चंग शाही, लीला कुमारी भण्डारी, वासुदेव घिमिरे, सम्झना देवकोटा, सुनील बहादुर थापा, सोमनाथ पोर्तेलश्च निर्वाचिता आसन्। सप्तदशभिः सांसदैः ह्यः शपथः गृहीतः परं मीना सिंह रखाल शपथग्रहण कार्यक्रमे अनुपस्थिता आसीत्। एकोनषष्टि सदस्यात्मिकायां राष्ट्रियसभायां एकतृतीयांश सदस्यानां कृते प्रतिवर्षद्वयं निर्वाचनस्य व्यवस्था वर्तते। निर्वाचनायोगेन गतरात्रौ द्वादशवादनात् निर्वाचनाचारसंहिता निष्क्रिया सम्भूता अस्ति इति ज्ञापितम् वर्तते। गत माघ मासस्य एकादशी दिवसे सम्पन्ने राष्ट्रिय सभायाः सदस्यानां निर्वाचने अस्यैव फाल्गुन मासस्य एकविंशे दिवसे सम्पन्ने प्रतिनिधिसभा सदस्यानां निर्वाचने स्वच्छं भयमुक्तं च वातावरणं निर्मातुं आचार संहिता क्रियान्विता आसीत्। त्रिसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य निर्वाचनायोगाधिनियमस्य द्वाविंशतितमस्य प्रकरणस्य एतद् विक्रमवर्षीयायाः निर्वाचनाचार संहितायाः प्रथम प्रकरणस्य द्वितीयोपप्रकरणस्य अनुसारेण अपरसूचनायाः अप्रकाशं यावत् निर्वाचनाचार संहिता क्रियान्विता आसीत्। आचार संहितेयं गतरात्रौ द्वादशवादनात् निष्क्रिया सम्भूता अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन वायु प्रदूषणात् आत्मनः संरक्षणार्थं सर्वे जनाः अनुरुद्धाः सन्ति। मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी काष्ठमण्डप उपत्यकायां वायु प्रदूषणस्य वृद्धेः कारणात् ततः आत्मानं संरक्षितुं सर्वान् अनुरुणात्। वायु प्रदूषणेन बालबालिकासु दीर्घरोगीषु श्वास प्रश्वास सम्बद्ध रोगीषु च प्रभावः आधिक्येन भवितुं शक्नोतीत्यतः एतैः विशेषतः सावधानताम् अवलम्बितुं मन्त्रालयेन अनुरुद्धमस्ति। आगामिनं सप्ताहं यावत् वायु प्रदूषणस्य प्रभावः काष्ठमण्डपे सम्भवतीति मन्त्रालयेन ज्ञापितं वर्तते। मन्त्रालयेन प्रातः सायं च बहिर्न गन्तुं सर्वे अनुरुद्धा सन्ति। निष्क्रमणावसरे मुखपट्टिकां निधातुं च अनुरुद्धमस्ति। बुटवल नारायणगढ़ मार्गखण्डः अवरुद्धोऽस्ति। वर्षायाः कारणेन दाउन्ने क्षेत्रे मृत्तिकाया स्खलनेन मार्गे पिच्छलतायाः कारणात् ह्यस्तन दिवसात् यातायात साधनानां गमनागमनयोः समस्या सम्भूता अस्ति इति नवलपरासी वर्धघाट सुस्तापूर्व जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। इति समाचारः।